ऋगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सीदसाधनम् प्रणो देवी सरस्वती वाचेभिर्वाजिनीवती दीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ यश्चन्द्रसा मृषभो विश्वरूपः छन्दोभ्योऽध्यमृता सम्बभूवा समेन्द्रो मेधया आशृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवी जुषमाना न आगा विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ता बृहद्वरेम विदते सुवीराः त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गत श्रीरुदत्वया त्वया जुष्टश्चित्रम् विन्दते वसु सानो जुषस्वद्रविणो न मेधे मेधा महीन्द्रो ददातु मेधा देवी सरस्वती मेधा मे अश्विना गुहावादत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषता गुस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीकाजुषन्ता मयि मेधा मयि प्रजा मयि अग्निस्तेजो ददातु मयि मेधा मयि प्रजा मयीन्द्र इन्द्रियम् ददातु मयि मेधा मयि प्रजा मयि सूर्यो ब्राजो ददातु हंसा हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ शान्ति शान्ति शान्तिः
धाता पुरस्ताध्यमुदाजहारा
शक्रः प्रविद्वान् प्रतिशतस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्थायनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम्
नारायण परो ज्योतिरात्मा नारायणः परः नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायण परो ज्ञाता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्चतत् सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्दम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगम् हृदयम् चाप्यधोमुखम् अधो निष्ठावितस्यान्ते नाभ्यामुपरि तिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भत्यागोषसन्निभम् तस्यान्ते सुशिरगम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाचिर्विश्वतो मुखः सोऽग्रभुग्विभजन्निषन्नारमजयः कविः तिर्यगूर्ध्वमदशायी रश्मयः स्वस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अणियोर्ध्वा व्यवस्थितः नीलतो यदमद्य सा विद्युल्लेखेव भास्वरा नीवारशूकवत् तन्वी पीताभाः स्वत्यनुपमा तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिस्सेन्द्र सोऽक्षरः परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्नेरायतनम् वेदा आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेदा आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपदायतनम् वेदा आयतनवान् भवति आपो वा अमुष्यतपदायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति चन्द्रमा वापामायतनम् आयतनवान् भवति यश्चन्द्रमसायतनं वेदा आयतनवान् भवति आपो वै चन्द्रमसायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति नक्षत्राणि वापामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनं वेदा आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति पर्जन्यो वापामायतनम् आयतनवान् भवति यपर्जन्यस्यायतनं वेदा आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति संवत्सरो वापामायतनम् आयतनवान् भवति यस्संवत्सरस्यायतनं वेदा आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेदा योऽस्तु नाभं प्रतिष्ठितां वेदा प्रत्येव तिष्ठति राजाधिराजाय प्रदयसाहिने नमो वयं वै श्रवणाय कुर्महे समेकामाङ्गामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजयादनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्धकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेष्मभूतम् यत्पुण्डरीकम् पुरमद्य सद्गस्तम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपातितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः
ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾ ಸುಖಿನೋ ಭವಂತು